श्रीगुरुभ्यो नमः. अगजानन पद्मार्गं गजानन महर्निशम् अनेकदन्तं भक्तानाम् एकदन्तमुपास्महे. श्रीमहागणपतये नमः. गुरवे सर्वलोकानां भीषजे भवरोगिणां निधये सर्वविद्यानां दक्षिणामूर्तये नमः. अस्मद्गुरुचरणारविन्दाभ्यां नमः. ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् आधारं सर्वविद्यानां हयग्रीमुपास्महे. श्रीहयग्रीवमूर्तये नमः. सरस्वती नमस्तुभ्यं वरदे कामरूपिणी. विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा. श्रीमहासरस्वत्यै नमः. अस्मद्गुरुचरणारविन्दाभ्यां नमः. हरिः ओम्.
धन्यवादः भगिनि. सर्वेभ्यः नमः. सर्वेषां स्वागतम् अस्मिन् सर्वेभ्यो नमः. सर्वेषां स्वागतम् अस्मिन् वर्गे. अस्माकं प्रवर्तमानविषयः अस्ति तत्र कर्मणि प्रयोगः. तत्र कर्मणि प्रयोगे नियमः के इति तत्र दृष्टवन्तः, अपि अभ्यासनमपि कृतवन्तः. तत्र प्रायशः इदानीं तत्र किं करणीयं, तत्र पेज् 126 मध्ये तत्र कश्चित् अभ्यासः अस्माभिः कृतः वा?
125 करणीयं महोदय.
आम्, 125 करणीयम्.
ओ अस्तु 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 अस्तु. तत् वयं कृतवन्तः न भगिनि? शिक्षकेन? ओ अस्तु. अहं चिन्तितवन्तः कृतवन्तः, सम्पूर्णतया न कृतवन्तः वा? अस्तु भगिनि, अस्तु. तर्हि पञ्चमाभ्यासः अस्तु, ततः एव पठामः तर्हि. अस्तु, तत्र उषा भगिनी भवती एव आरम्भं करोति वा तर्हि?
आं महोदय, अभ्यास
एकवारम्. अस्तु, तत्र सरलवाक्यं तत्र आरम्भे एतत् कुर्मः. तत्र सरलवाक्यं कर्तृप्रयोगे, तदनन्तरं कर्मणि प्रयोगे.
किमपि वाक्यं महोदय?
सरलवाक्यं, किन्तु तत्र उपरि यत् यानि क्रियापदानि दत्तानि तान् तेषाम् उपयोगेन, तत्र वदति, वक्ति, वपति, वहति, केवलं तस्य उपयोगेन उपयोगं भवेत्.
वदति
न, केवलम् आरम्भे केवलं भवत्याः तत्र सरलवाक्यं, पुस्तकस्य वाक्यं मास्तु, भवत्याः सरलवाक्यं, किन्तु तत्र वदति, वक्ति, वपति, वहति इति उपयुज्य एकं क्रियापदं स्थित्वा सरलवाक्यं वदतु भगिनि.
गुरुणा बालः उद्यते.
हा अस्तु, कर्तृप्रयोगे
गुरुः बालं वदति.
हा, गुरुः बालं वदति, अस्तु, समीचीनं. हा, इदानीम् एतत् कुर्मः, तदनन्तरम् अभ्यासं कुर्मः. अस्तु, तर्हि अग्रे तत्र नरेश महोदय, भवतः वाक्यम्.
आं महोदय, अहं श्लोकं वदामि. मया श्लोकः उद्यते.
मया श्लोकः उद्यते, समीचीनं. हा अस्तु, सुजाता भगिनी.
आम् आं महोदय, सः कथां वक्ति सम्यक् महोदय?
कथां वक्ति सः कथां वक्ति, समीचीनं.
तेन कथा उच्यते.
हा, समीचीनम्, अस्तु. हर्षदा भगिनी अग्रे.
बालिका कवितां वदति. बालिकया कविता उद्यते.
उद्यते, समीचीनम्. हा अस्तु, शोभ भगिनी अग्रे.
आं महोदय, मित्रं माम् आह्वयति. मित्रेण अहम् आहूये.
मित्रेण अहम्
आहूये, सम्यक् वा महोदय?
तत्र आहूये, हा समीचीनं भगिनि. हा हा हा, समीचीनं. तत्र प्रथमपुरुषे आहूयते, अहम् आहूये, समीचीनं भगिनि. हा, तथैव अस्ति. हा, इदानीं तत्र हा वेदा भगिनि.
आं महोदय, आह्वयति आह्वयते वा तत् वा
किमपि तत्र किमपि क्रियापदं तत्र वदति वक्ति वपति वहति आह्वयति उपयुज्य किमपि सरलवाक्यं कर्तृप्रयोगे तदनन्तरं कर्मणि प्रयोगः
सः गीतां वदति तेन गीता उद्यते
तेन गीता
उद्यते
उद्यते अस्तु समीचीनं हा अस्तु अग्रे प्रिया भगिनी
रावणः सीतां वहति रावणेन सीता उह्यते
उह्यते हा समीचीनं भगिनि हा समीचीनम् अतः तत्र इदानीं तत्र कर्तृप्रयोगः कर्मणि प्रयोगः तत्र परिवर्तनं कथं भवति इति दृष्टवन्तः अस्तु इदानीं तत्र अभ्यासः पञ्चम अभ्यासः कुर्मः तर्हि अस्तु इदानीं तत्र उषा भगिनी आरम्भं करोतु तर्हि
आं महोदय अभ्यासः यथोचितेन कर्मणि प्रयोगेण रिक्तस्थानानि पूरयत वद् वच् आ योगः वे इति अस्ति शिक्षकेन शिक्षकेन सह उद्यते शिक्षकेन सह उच्यते शिक्षकेन सह आहूयते
हा समीचीनम् इदानीं तत्र कर्तृरूपमपि वदतु एकवारं
शिक्षकः सः वदति
न न न शिक्षकः
शिक्षकः तं वदति शिक्षकः वच् उच्यते तं शिक्षकः तं वक्ति शिक्षकः तम् आह्वयति
तम् आह्वयति समीचीनं भगिनि हा तथैव अस्ति अस्तु तर्हि अग्रे सुजाता भगिनी अग्रे
आं महोदय शिक्षकेन तौ उच्यते शिक्षकेण तौ उच्यते
उच्यते उच्यते
शिक्षकेण तौ आहूयते
आहूयते समीचीनम् इदानीं कर्तृरूपं
शिक्षकः
तत्र सः तौ ते पुनः
सः तौ ते तां तं
द्विवचने
युवां युवां युवां
न न न सः तौ ते तम् इति न सः तौ ते
तं
तौ तान्
तौ तान्
तत्र सः अन्य कोऽपि तत्र वदति
तौ युवाम् अस्ति न महोदय न
तौ 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 इति भिन्नमस्ति भगिनि तत्र तौ नाम सः तौ
सः तौ ते तं तौ तान्
अस्ति
तं तौ तान् क्षम्यतां महोदय शिक्षकेन शिक्षकेन तौ नो नो तौ
अस्तु तत्र एकवारं कर्मणि प्रयोग पठतु कर्मणि प्रयोगः दत्तः तद् तं पठतु
शिक्षकेन तौ उद्येते
इदानीं तत्र कर्तृरूपं वदतु शिक्षकः
शिक्षकः तौ वदति
वदति
वदतः न भवति महोदय
यतोहि कर्तृपदं किम्
कर्तृपदं शिक्षकः
कर्तृपदस्य वचनं किं
कर्तृपदस्य वचनम् एकवचनम् अस्ति शिक्षकः
अतः वदति एव भवति खलु किमर्थं वदतः
आं महोदय भ्रमः अस्ति
चिन्ता मास्तु भगिनि हा शिक्षकः
शिक्षकः तौ वदति शिक्षकः तौ वक्ति शिक्षकः तौ आह्वयति
तावदेव अस्ति शिक्षकः इदानीं पुनः एकवारं तत्र इदानीं तत्र विश्वासेन वदतु तत्र शिक्षकः
शिक्षकः तौ वदति शिक्षकः तौ वक्ति शिक्षकः तौ आह्वयति
हा इति अस्तु समीचीनं
धन्यवादः
महोदय समीचीनं भगिनि अस्तु अग्रे तत्र शोभा भगिनि अग्रे
आं महोदय शिक्षकः अधुना ते इति शिक्षकः तान् वदति शिक्षकेण ते उद्यते
न भगिनि शिक्षकेण ते इति अस्ति चेत् तत्र किं भवति
उद्यते 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 उद्यन्ते भवति क्षम्यतां महोदय
उद्यन्ते
अपि च शिक्षकः तान् तत्र उच्यते शिक्षकेण ते उच्यन्ते
भगिनि पुनः तत्र कर्तृरूपं वदतु
शिक्षकः ओ क्षम्यतां ते अस्ति अस्तु तान् इति एव भवति किल महोदय
अस्तु अस्तु एकवारं तत्र भगिनि पुनः तत्र एतत् करोतु तत्र साक्षात् अभ्यासः यः अस्ति तं प्रथमतया वदतु नाम शिक्षकेण ते इति तदनन्तरं वाक्यं पूरयतु तत्र किं भवति शिक्षकेण ते
शिक्षकेण ते उद्यन्ते
उद्यन्ते इदानीं समीचीनम् इदानीं तत्र त्रयमपि करोतु तर्हि तत्र शिक्षकेण ते उद्यन्ते
शिक्षकेण ते उच्यन्ते शिक्षकेण ते आहूयन्ते
हा अस्तु समीचीनम् इदानीं कर्मणि समाप्तम् इदानीं कर्तृरूपाणि रूपाणि वदतु
अस्तु शिक्षकः तान् वदति शिक्षकः तान् उच्यते
किमर्थम् उच्यते इदानीं
तान्
शिक्षकः एव अस्ति खलु
शिक्षकः शिक्षकः
इदानीं कर्मणि वा कर्तरि वा
अस्तु अधुना कर्तरि किल महोदय तत्र शिक्षकः
कर्मणि तु भवती उक्तवती अतः इदानीमेव कर्त्री एव अतः शिक्षकः तान् वदति
वदति अस्तु
शिक्षकः
तान् वक्ति क्षम्यतां शिक्षकः तान् वक्ति शिक्षकः तान् आहूयति
आहूयति आह्वयति आहूयति न
आह्वयति
आह्वयति आह्वयति समीचीनं अस्तु अग्रे हर्षदा भगिनी
नमस्ते शिक्षकेण त्वम् उद्यसे शिक्षकेण त्वम् उच्यसे शिक्षकेण त्वम् आहूयसे शिक्षकः त्वां शिक्षकः त्वां वदति शिक्षकः त्वां वक्ति शिक्षकः त्वाम् आह्वयति
इति अस्ति समीचीनं हा अस्तु अस्तु समीचीनम् अस्तु अग्रे प्रिया भगिनी
शिक्षकेन युवाम् उद्येते शिक्षकेन युवाम् उच्येते शिक्षकेन युवाम् आहूयेते शिक्षकः युवामेव युवां वदति शिक्षकः युवां वक्ति शिक्षकः युवाम् आह्वयति
आह्वयति समीचीनम् अस्तु अग्रे नरेश महोदय
महोदय शिक्षकेन यूयम् उद्यध्वे शिक्षकेन यूयम् उच्यध्वे शिक्षकेन यूयम् आहूयध्वे कर्तरीरूपम् अस्ति शिक्षकः युष्मान् वदति शिक्षकः युष्मान् वक्ति शिक्षकः युष्मान् आहूयति
न न न अन्तिमं शिक्षकः
युष्मान् आहूयते
न न आह्वयति खलु
आह्वयति अस्तु अस्तु आह्वयति
आह्वयति शिक्षकः आह्वयति
युष्मान्
युष्मान्
आह्वयति
समीचीनं महोदय अस्तु अग्रे श्रीप्रिया भगिनी वक्तुम् इच्छति वा अग्रे
नमस्ते महोदय प्रयत्नं
नमस्ते भगिनी तत्र अहम् इति इदानीं
शिक्षकेण अहम् उद्ये शिक्षकेण अहम् उच्ये शिक्षकेण अहम् आह्वये आहूये
आहूये हा समीचीनम् इदानीं कर्तृरूप
शिक्षकः मां वदति शिक्षकः मां वक्ति शिक्षकः माम् आह्वयति
हा समीचीनं भगिनि हा तथैव अस्ति अस्तु अग्रे वेदा भगिनि
हा महोदय शिक्षकः अहं शिक्षकेन आवाम् उद्यावहे शिक्षकेन आवाम् उद्यावहे उच्यावहे शिक्षकेन आवाम् किं वदामि आहूव्यवहे वा आहूव्य
न न तत्र आहूयते इति अस्ति खलु भगिनि
आम् आम् आहूयते
तत्र किं कुर्मः तत्र
शिक्षकेन शिक्षकेन आवां बहुवचनरूपम् अस्ति तत्र
न न द्विवचनरूपं भगिनि
शिक्षकेन आवाम् उद्यावहे उच्यावहे
एतत् करोतु भगिनि तत्र उद्यते इति अस्ति खलु तत्र प्रथमपुरुषे एकवचने उद्यते इदानीं तत्र उत्तमपुरुषे एकवचने किं भवति उद्ये खलु
आम् आम् उद्ये करेक्ट्
इदानीं तत्र द्विवचने किं भवति
उद्ये उद्यावहे उद्यामहे उद्यावहे
उद्यामहे इदानीं तत्र आह्वयति इति स्वीकरोतु तत्र आहूयते इति अस्ति इदानीम् उत्तमपुरुषे एकवचने रूपं किं भवति
आहूय आहूय आहूये
आहूये इति अस्ति इदानीं तत्र आहूय तत्र
आहूये आहू आहूयावहे
हा तथैव समीचीनं हा
आहूयावहे
इदानीं पूर्णवाक्यं
शिक्षकेन आवाम् आहूयावहे
हा अस्तु इदानीं तत्र कर्तृरूपं
कर्तरिप्रयोगे शिक्षकः शिक्षकः आवां स्थाने आवाम् एव भवति शिक्षकः आवां वद शिक्षकः आवां वदति शिक्षकः आवां वक्ति शिक्षकः आवाम् आह्वयति
हा इति अस्ति तथैव समीचीनम् अस्तु अस्तु इदानीं तत्र प्रणा भगिनी कर्तुम् इच्छति वा
एवं महोदय
हा अस्तु भगिनि अन्तिमं हा वयम् इति
हा शिक्षकेण वयम् उद्यामहे शिक्षकेण वयम् उच्यामहे शिक्षकेण वयम् आहूयामहे इदानीं कर्तरिरूपं शिक्षकः अस्मान् वदति शिक्षकः अस्मान् वक्ति शिक्षकः अस्मान् आह्वयति
हा इति समीचीनं भगिनि हा समीचीनं धन्यवादः अस्तु इदानीम् अग्रे सरामः तर्हि तत्र सुजाता भगिनी अग्रिमम् आरम्भं करोति वा
आं महोदय श्रूयते वा महोदय
श्रूयते भगिनि श्रूयते
कोष्टकस्यै यदोचितैः कर्मपदैः रिक्तस्थानानि पूरयत। कोष्टके कानिचन पदानि सन्ति, उपायनानि जलं, देशः, बीजानि, भारः, सेवकाः, त्वं, पुष्पम्, अहं, प्रकृतिः, आभूषणानि, देवः, यूयं, तृणम् इति पदानि सन्ति।
तत्र किं सामान्यमस्ति तत्र तेषु पदेषु? समानवचनम् अस्ति वा?
बहुवचनम् अस्ति, नपुंसकलिङ्गम् अस्ति, एकवचनम् अस्ति,
समानं नास्ति, लिङ्गः लिङ्गं तत्र समानं नास्ति, किन्तु
नास्ति
समानम् अस्ति, तत् किम्?
प्रथमविभक्ति
सर्वदा प्रथमविभक्ति, कर्मणि प्रयोगे कर्मपदस्य प्रथमाविभक्ति। समीचीनं भगिनि। हा अस्तु, इदानीं प्रथमवाक्यं
बालेन घ्रायते, बालेन घ्रायते प्रथमाविभक्ति भवति। पुष्पं
हा
पुष्पं घ्रायते। कर्मकरेण ऊह्यते वहते। ओके, कर्मकरेण भारः ऊह्यते।
कर्मकरेण भारः
ऊह्यते।
समीचीनम्। इदानीं तत्र अस्तु, हा समीचीनम्, अस्तु अग्रे सरामः तर्हि। इदानीं तत्र हर्षदा भगिनि,
द्वितीयं।
धन्यवादः भगिनि।
कृषकेण किम् उप्यन्ते? बीजानि उप्यन्ते।
हा बीजानि उप्यन्ते, समीचीनम्। चतुर्थः अपि मित्रेण,
मित्रेण दीयन्ते, किं दीयन्ते? उपायनानि दीयन्ते।
हा उपायनानि दीयन्ते, समीचीनम्। हा उपायनानि दीयन्ते, समीचीनम्, अस्तु। अग्रे प्रिया भगिनी।
आं महोदय, अतिथिना जलं पीयते।
अतिथिना जलं पीयते, समीचीनम्, अस्तु। षष्ठवाक्यं
दुष्टेन निन्द्ये, दुष्टेन निन्द्ये इत्युक्ते
तत्र निन्द्ये इति दृष्ट्वा तत्र क्रियापदस्य पुरुषः वचनं किम् इति वक्तुं शक्नोति वा?
अहं निन्द्ये।
हा समीचीनम्, हा समीचीनं भगिनि, हा तथैव अस्ति। हा अस्तु अस्तु अस्तु, समीचीनम्। अग्रे उषा भगिनि,
तत्र नत्वं न भवति किल? तुष्टेन ण इति अस्ति मम पुस्तके, परन्तु नत्वं न भवितुमर्हति, किमर्थं चेत् षकः अस्ति परन्तु तत्पश्चात् टकारः अस्ति, तद् बाधा अस्ति नत्वं।
समीचीनं भगिनि, दुष्टेन इति एव भवेत्, सत्यं सत्यं सत्यं, हा सत्यं भगिनि, हा 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 हा, कवर्गः नास्ति, पवर्गीय नास्ति, सत्यं भगिनि, दुष्टेन इति एव भवेत्, सत्यम्। अस्तु अग्रे।
आं महोदय, महिलया,
महोदय क्षम्यतां, कर्तरिवाक्यमपि वदामः महोदय,
वदतु भगिनि।
एतेषां कर्तरिवाक्यानि अपि
भगिनि, तस्य चिन्तनम् आसीत्, अहं चिन्तितवान् तत्र सर्वाणि वाक्यानि एकवारं कर्मणि प्रयोगे वदामः, तदनन्तरं यदि तत्र कर्त्री भवति चेत्।
अस्तु 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 महोदय,
नो चेत् किं भवति, वाक्यं श्रुतवन्तः, झटिति कर्तृ भवति, किन्तु कर्मणि प्रयोगः किञ्चित् पूर्वम् आसीत् चेत्, इदानीं कर्त्री वक्तव्यं चेत् तत्र लाभः भवति इति इति चिन्तनं पश्यामः तत् कथम् इति अग्रे
महिलया आभूषणानि क्रियन्ते भगिन्या यूयं प्रेष्य द्वे
यूयं प्रेष्य द्वे समीचीनं हा प्रेष्य द्वे इति यतोहि तत्र मध्यमपुरुष
यूयम् अस्ति महोदय
बहुवचनं हा रूपम् अत्र रूपं दृष्ट्वा जानीमः समीचीनम् अस्तु नरेश महोदय अग्रे
कविना प्रकृतिः वर्ण्यते अधिकारिणा सूच्यन्ते अधिकारिणा सेवकाः सूच्यन्ते
हा अधिकारिणा सेवकाः सूच्यन्ते समीचीनम् अस्तु शोभा भगिनी अग्रे
सैनिकेन देशः रक्ष्यते पित्रा त्वम् आहूयसे
हा पित्रा त्वम् आहूयसे अस्तु समीचीनम् अस्तु एतावत् अस्तु तर्हि तत्र अपर्णा भगिनी अग्रे
धेनुभिः तृणं चर्व्यते मया देवः वन्द्यते
हा अस्तु समीचीनं हा इदानीं श्रीप्रिया भगिनी भवती एव आरम्भं करोतु तर्हि तत्र इदानीं तत्र प्रथमवाक्यद्वयम् इदानीं कर्तृरूप
आमाम् बालेन पुष्पं घ्रायते इति कर्मणि वाक्यं बालः पुष्पं जिघ्रति
जिघ्रति हा समीचीनं हा अस्तु अग्रे
कर्मकरेण भारः उह्यते कर्मकरः भारं वहति
समीचीनं भगिनि तथैव
वहति
वहति हा वहति इति उह्यते इति भवति समीचीनं हा वहति उह्यति इति भवति समीचीनम् अस्तु इदानीं तत्र अग्रे तत्र वेदा भगिनी इदानीं तत्र तृतीयं चतुर्थम् इदानीं कर्तृप्रयोगे
कृषकः बीजानि वपति कृषकः बीजानि वपति कृषक मित्रेण उपायनानि दीयन्ते मित्रेण मित्रः उपाय
मित्रं मित्रं मित्रमिति नित्य नपुंसकलिङ्गपदं
नपुंसकलिङ्गमस्ति वा मित्रम् उपायनानि ददति
ददति वा ददाति वा
ओ ददाति सारि ददाति आम् ददाति मित्र उपायनानि
कानि तत्र ददाति
ददाति ददत्तः न ददाति दत्तः ददति
समीचीनं हा 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 समीचीनं भगिनि हा अस्तु अग्रे तत्र इदानीं सुजाता भगिनी इदानीं तृतीयं पञ्चमम् अपि षष्ठः वाक्यं
अतिथिना जलं पीयते अतिथिः जलं पिबति दुष्टेन अहं निन्द्ये दुष्टः अहं
तत्र अहं
वयं
न न अहम् इति पदस्य विभक्तिरूपं
मां दुष्टेन मां
दुष्टेन अहं निन्द्ये दुष्टः मां
दुष्टः मां निन्दति
निन्दति तथैव अस्ति समीचीनम् अस्तु अग्रे हा अग्रे शोभा भगिनी अग्रे
महिलाः तत्र महिलया आभूषणानि क्रियन्ते इति आसीत् महिलाः आभूषणानि क्रीणन्ति
किमर्थं महिलानि महिलाः
महिला आभूषणानि क्रीणाति
हा महिला आभूषणानि क्रीणाति समीचीनं
भगिन्या तत्र उपायनानि इति आसीत् किल महोदय भगिन्या
प्रेष्य द्वे इति अस्ति
प्रेष्य द्वे
कर्मपदं किं भवेत् तर्हि
प्रेषद्वे मध्यमपुरुषे बहुवचने भवति अतः तत्र कर्मपदं एक तत्र बहुवचने भवनीयम् उपाय
मध्यमपुरुषे कानि पदानि सन्ति तत्र नाम तत्र अहम् आवां वयम् इति उत्तमपुरुषपदानि खलु मध्यमपुरुषे कानि पदानि सन्ति
तत्र त्वं युवां यूयम् इति भवति
केवलं तत्र पदत्रयं खलु अतः तत्र क्लेशः एव मास्तु भगिनि तर्हि खलु तत्र प्रेष्य द्वे इति अस्ति चेत् तत्र वचनं किं बहुवचनं वा द्विवचनं वा
तत्र यूयम् इति भवति
यूयमेव अतः तत्र मध्यमपुरुषः अथवा उत्तमपुरुषः अस्ति चेत् चिन्तनम् एव मास्तु केवलं तत्र प्रथमपुरुषः भवति चेदेव तत्र किं भवति तत्र पुस्तकं वा पुस्तकानि वा पुरुषः वा महिला वा तत्सर्वं चिन्तनं किन्तु मध्यमपुरुषे उत्तमपुरुषे केवलं तत्र पदत्रयं
तत्र भगिन्या यूयं प्रेष्य द्वे भगिनी यूयं प्रेषयति
न यूयम् इति तत्र किं भवति
युष्मान् अस्मान् युष्मान् क्षम्यतां महोदय भगिनी युष्मान् प्रेषयति
हा भगिनी युष्मान् प्रेषयति समीचीनम् अस्तु अग्रे तत्र अपर्णा भगिनी अग्रे
कविना प्रकृतिः वर्ण्यते कविः प्रकृतिं वर्णयति अधिकारिणा सेवकाः सूच्यन्ते अधिकारिः सेवकान् सूचयति
समीचीनं हा अस्तु अग्रे हर्षद भगिनि
सैनिकेन देशः रक्ष्यते सैनिकः देशं रक्षति पित्रा त्वम् आहूयसि पिता त्वाम् आहूयति
आह्वयति हा इति समीचीनं हा आह्वयति अस्तु अग्रे उषा भगिनी
महोदय एकनिमिषं महोदय दशमः वाक्यः अधिकारी इति भवितुम् अर्हति वा
अधिकारी इति एव
ओ अहं चिन्ता अस्तु
यतोहि तत्र हा भगिनी तत्र अधिकारिणा इति दृष्ट्वा तत्र प्रायशः तत्र प्रातिपदिकं किम् इति जानाति वा तत्र
अधिकारिन् इति मम मन्ये क्षम्यतां महोदय मम दोषः एव अहम् अधिकारिः इति श्रुतवती मम मन्ये परन्तु तत् नास्ति किल अधिकारी एव
मया दोषः कृतः महोदय अहम् अधिकारिः इति उक्तवती
इति वा अस्तु 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 क्षम्यतां हा अहमपि तत्र अधिकारी इति एव श्रुतवान् किन्तु विसर्गः न हा अस्तु तत्र अधः तत्र अधिकारी इति दीर्घ इकारः इनि प्रत्ययः नाम खलु नाम यस्मिन् अथवा यस्य अधिकारः अस्ति सः अधिकारी अधिकारिन् इति यस्मिन् अपि यस्य अथवा यस्मिन् गुणः अस्ति सः गुणिन् तथैव अधिकारी अधिकारः यस्मिन् अथवा यस्य अस्ति अस्तु धन्यवादः प्रिया भगिनी धन्यवादः अपर्णा भगिनी अस्तु
धन्यवादः
उषा भगिनी अग्रे
आं महोदय धेनुभिः तृणं चर्व्यते इति अस्ति कर्तरिप्रयोगे धेन्वः तृणं चर्वन्ति अपि च एकवचनमस्ति चेत् धेनुः तृणं चर्वति कर्मणि प्रयोगे धेन्वा तृणं चर्व्यते इति
अस्ति समीचीनम् अग्रिमवाक्यं
मया देवः वन्द्यते इति अस्ति अहं देवं वन्दे मया देवः वन्द्यते
समीचीनम्
अहं देवः वन्द्यते अपि च वयं देवं वन्दामहे अस्माभिः
अस्तु अस्तु समीचीनं भगिनि तथैव हा 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 समीचीनम् अस्तु अस्तु तर्हि अतः तत्र इदानीं तत्र सर्वे निपुणाः जाताः इति अस्तु समीचीनम् अस्तु इदानीम् अग्रे सरामः तर्हि सुभाषितानि इति अस्ति तत्र श्रीप्रिया भगिनी अग्रे पठति वा
आम् पठामि एकोऽहम् असहायोऽहं कृशोऽहं परिच्छदः अपरिच्छदः इति भवति वा महोदय कृशोऽहं
तथैव भवति इति मन्ये भगिनि पश्यामः
कृशोऽहम् अपरिच्छदः स्वप्नेप्येवं विधा चिन्ता मृगेन्द्रस्य न जायते
अग्रे मम पुस्तके अधोभागे तदपि एकवारं
पठतु एतत् नास्ति मम पुस्तके
आम् महोदय मम पुस्तके अपि भिन्नं सुभाषितमस्ति
अस्तु अस्तु अतः तत्र एतद् पठित्वा तदपि पठामः तर्हि अस्तु समीचीनम्
अहम् एकः एव अस्मि मम सहायकः कोऽपि नास्ति अहं कृशः अस्मि साधनं किमपि नास्ति इत्येतादृशी चिन्ता सिंहस्य स्वप्नेऽपि न भवति
अस्तु तर्हि अतः तत्र इदानीं तत्र पदपरिच्छेदं तत्र भवती कृतवती खलु भगिनि तत्र एकः अहम् असहायः अहम् इति सर्वम् अस्तु इदानीं तत्र कर्मणि प्रयोगः कुत्र दृश्यते इति वदतु तर्हि
एकः अहम् असहायः अहं कृशः अहम् अपरिच्छदः स्वप्नेऽपि एवं विधा चिन्ता जायते इति खलु
हा समीचीनं
न जायते
अस्तु इदानीं तत्र
मृगेन्द्रस्य चिन्ता न जायते
हा इदानीं तत्र जायते इति तत्र प्रायशः तत्र तस्य रूपाणि पूर्वं दृष्टवन्तः खलु तत्र जायते इति तत्र कर्तृप्रयोगे किं भवति
जायते जायते खलु महोदय
चिन्ता न जायते तत्र कर्तृप्रयोगः वा कर्मणि प्रयोगः वा
अत्र तु कर्मणि वाक्यं खलु मृगेन्द्र
कर्मणि भवेत् खलु हा किन्तु तत्र यतोहि
क्षम्यतां महोदय
उदाहरणत्वेन दत्तमस्ति खलु एतत् सुभाषितं किन्तु तत्र अतः तत्र जायते इति तत्र कर्मणि रूपम् अस्ति चेत् तत्र किं कर्मपदं कर्तृपदं तत्र किं भवति खलु तत्र
अत्र जायते इति अकर्मकक्रिया खलु महोदय चिन्ता जायते इत्येव न खलु ओ न न न
तत्र जायते तत्र प्रायशः तत्र तत्र किञ्चित् जायते इति कर्तृ हा कर्तृ अपि भवेत् कर्मणि अपि भवेत् खलु किन्तु तत्र चिन्ता न जायते इति मम मनसि एतत् तु कर्तृरूपमेव अस्ति
कर्तरि एव खलु महोदय अकर्मक
मनसि क्लेशः अस्ति किमर्थम् एतद् उदाहरणत्वेन दत्तम् इति खलु चिन्ता न जायते चिन्ता न भवति अस्तु किन्तु भवति इति परस्मैपदे धातुः जायते इति आत्मनेपदी धातुः तावदेव अतः तत्र अत्र
किं महोदय परस्मैपदी
नाम जायते इति स्थाने तत्र भवति न भवति इति अपि वक्तुं शक्नुमः खलु
अस्तु
तावदेव तत्र नाम तत्र यदि परस्मैपदीरूपं पश्यामः वयं जानीमः तत् कर्तृप्रयोगः एव इति यतोहि कर्मणि प्रयोगः सर्वदा आत्मनिपदीरूपे भवति खलु
आम् आम्
तत्र तत्र करो खलु तत्र पठति अस्ति चेत् कर्तृरूपमेव पठ्यते अस्तु आत्मनिपदि तत् कर्मणि भवेत् इति चिन्तनं किन्तु जायते इति स्थाने तत्र भवति इति स्थापयामश्चेत् अर्थः समानः अतः तत्र कर्तृ एव अस्तु अतः तत्र न जानीमः किमर्थम् एतद् उदाहरणं दत्तम् अस्तु नूतनमुद्रणे किम् अस्ति इति पश्यामः तर्हि तत्र हर्षदभगिनी अथवा अपर्णभगिनी तत्र अपर्णभगिनी भवति अथवा हर्षदभगिनी वदतु भगिनी तर्हि
आं महोदय स्थिरा शैली गुणवतां फलबुद्ध्यान बाध्यते रत्नदीपस्य हि शिखा वात्ययापि न नाश्यते
अन्तिमपदं क्रियापदं किम् आसीत् भगिनि
प्रथमपङ्क्तौ बाध्यते अस्ति नाश्यते अस्ति
नाश्यते अस्तु अतः तत्र कर्मणि प्रयोगः अस्तु तत्र अधोभागे किम् उक्तं दत्तं तदपि एकवारं पठतु भगिनि
सत्पुरुषाणां कार्यशैली दृढा भवति दुष्टाः स्वबुद्धिप्रयोगेणापि तां बाधितुं न शक्नुवन्ति महान् अपि वायुः रत्नदीपस्य ज्वालां नाशयितुं न शक्नोति
वा बहु समीचीनमस्ति भगिनि हा हा तत्र अर्थः यः दत्तः तत् पुनरेकवारं पठतु भगिनि तर्हि
अर्थः वा सुभाषितं वा
सुभाषितं मास्तु केवलम् अर्थः
सत्पुरुषाणां कार्यशैली दृढा भवति दुष्टाः स्वबुद्धिप्रयोगेणापि तां बाधितुं न शक्नुवन्ति महान् अपि वायुः रत्नदीपस्य ज्वालां नाशयितुं न शक्नोति
अस्तु भगिनि तत्र बुद्धिः अस्ति वा अथवा बुद्धेः इति अस्ति वा भगिनि
बुद्धि अस्ति बुद्धि
बुद्धिप्रयोगेण इति एकपदं वा समस्तपदम्
समस्तपदमस्ति
अतः 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 मम मनसि क्लेशः आसीत् अस्तु बुद्धिप्रयोगेण अस्तु बुद्धिप्रयोगे
स्वबुद्धिप्रयोगेण अपि
हा अपि अस्तु हा इदानीं पुनः तत्र सुभाषितम् इदानीं पठतु भगिनि
स्थिरा शैली गुणवतां खलबुद्ध्यान बाध्यते रत्नदीपस्य हि शिखा वात्ययापि न नाश्यते
वात्यया अपि न नाश्यते नश्यते हा अस्तु समीचीनं हा अतः इदानीं प्रथम अस्तु तत्र
अस्ति नाश्यते अस्ति नश्यते न
नाश्यते अस्तु हा नाशयति नाश्यते अस्तु समीचीनं भगिनि अस्तु इदानीं प्रथमपङ्क्तिः स्वीकृत्य किञ्चित् विवृणुतु भगिनि तर्हि तत्र कर्तृरूपं कथं भवति इति किञ्चित् वदतु तर्हि तत्र
स्थिराशैली गुणवतां खलु
तत्र स्थिराशैली गुणवताम् अस्ति गुणवतां शैली स्थिरा अथवा दृढा अस्ति इति एकः भागः खलु तत्र कर्तृप्रयोगः एव अस्तु तद् अवगच्छामः इदानीम् अग्रिमभागः
कर्तुं शक्नोमि
न न भगिनि तत्र प्रथमपङ्क्तिः एव तत्र तत्र पुनः स्थिरा शैली गुणवतां तदनन्तरं
खल बुद्ध्या न बाध्यते
खलबुद्ध्या
न बाध्यते खलबुद्धि स्थिरा शैलीं न बाधयति
इति एव सत्यं तथैव तत्र स्थिरां शैलीं किन्तु तस्मात् प्राक् गुणवतां स्थिरां शैलीं न बाधयति समीचीनं भगिनि हा अस्तु इदानीम् अवगतम् अस्तु हा तत्र कोऽपि प्रश्नः अस्ति वा
न महोदय
सर्वेषां कृते पृच्छामि यतोहि तत्र यतो सर्वेषां सर्वेषां पार्श्वे नास्ति, किन्तु भवती तत्र द्विवारं त्रिवारम् उक्तवती, अतः तत्र सर्वेषां मनसि स्थापितम् अस्ति इति मन्ये भगिनी. यदि तत्र लेखनरूपेण अस्ति चेत् सुलभतया अवगन्तुं शक्नुमः, किन्तु श्रवणेनापि तद् भवनीयं खलु. अतः तत्र भवती द्विवारम् उक्तवती, समीचीनम्. इदानीं तत्र अपर्णा भगिनी, इदानीं तत्र द्वितीयभागः, द्वितीयवाक्यं तस्मिन् सुभाषिते.
रत्नदीपस्य हि शिखा वात्ययापि न नाश्यते.
तत्र प्रथमतया भगिनी तत्र एकं कुर्मः, केवलं तत्र लघुवाक्यं रचयामः तत्र, नाम तत्र कर्तृपदं कर्मपदं क्रियापदं कर्मणि प्रयोगे. हा,
वातः इति अस्ति वा कर्तृपदं
तत्र? वात्यया इति अस्ति वा वातेन इति अस्ति वा?
वात्यया अपि
वात्यया, अतः स्त्रीलिङ्गपदं खलु तर्हि. वातः अपि अस्ति, किन्तु तत्र स्त्रीलिङ्गं तत्र कोऽपि जानाति वा तत्र वातः? तत्र स्त्रीलिङ्गे न जानामि भगिनि, तत्र वात्यया इति अस्ति चेत् तत्र लतया लतया वात्यया नद्या
इति हरिकेन् इति अस्ति इति दत्तं महोदय.
किं दत्तं भगिनि?
वात्या इति स्त्रीलिङ्गे, दीर्घाकारान्त स्त्रीलिङ्गे स्टार्म् हरिकेन् वर्ल् वर्ल् विण्ड् इति दत्तम्.
ओ अस्तु 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 हा अस्तु वात्या अस्तु स्त्रीलिङ्गपदं वात्या अस्तु दीर्घाकारान्त अस्तु
वात्या इति अस्ति वा महोदय?
महोदय संस्थादिनी मध्ये वात्या स्त्रीलिङ्ग तृतीया एकवचन वात धातोः कृदन्तरूप इति दत्तमस्ति.
तत्र वात्यया इति अस्ति,
अत्र वात्यया, अतः वात्या इति प्रातिपदिकम्.
वात्या रत्नदीपस्य शिखां न नाशयति.
वात्या हा वात्या पुनः भगिनि वात्या
वात्या रत्नदीपस्य शिखां न नाशयति.
हा इति अस्ति, समीचीनं भगिनि. हा समीचीनं. हा इदानीं हा अस्तु, इदानीं पुनः तत्र द्वितीयभागं यत् सुभाषिते आसीत् तत्र कर्मणि रूपं तत् पुनः एकवारं पठतु भगिनि.
रत्नदीपस्य हि शिखा वात्यापि न नाश्यते.
इतर आशील का झूठ वाला एला झाला है
डसला सम
बर
एक निमिष भगिनी. हा हा अस्तु अपर्ण भगिनी पुनः.
रत्नदीपस्य हि शिखा वात्यापि न नाश्यते.
हा अस्तु समीचीनम्. अतः तत्र सर्वे अवगतवन्तः इति मन्ये खलु? बहु समीचीनं सुभाषितम् अस्ति. अतः नूतनं तत्र पुस्तकस्य पुस्तकम् अस्मा वयमपि यदि प्राप्नुमः समीचीनमेव भवति, यतोहि तत्र एतत् सुभाषितमपि तत्र दत्तमस्ति. अस्तु धन्यवादः.
भवान् उक्तवान् वा तत्र रत्नदीपा इति किं तेन किम् उच्यते तत्र? वात्या अपि न नाशयति इति रत्नदीपा इति
रत्नदीपस्य
दीपस्य
किं भगिनि अपर्णा भगिनि तत्र?
रत्नदीपस्य ज्वालां नाशयितुं न शक्नोति.
ज्वालां रत्नदीपस्य ज्वाला ग्लिटर् अथवा शैनिङ्ग् तत्र
तत्र रत्नदीपा इत्यस्य महत्त्वं
रत्नदीपं नाम तत्र प्रकाशः अधिकः प्रायशः तत्र समीचीनम् इति.
ओ तत्र रत्नेन यत् प्रकाशः भवति तत् नाशयितुं किमपि तत्
हा तत्र वायुना अपि तत्र न नश्यति वायुना अपि सः न नश्यति तत्र ज्वाला न सा न नश्यति इति
क्षम्यतां महोदय अन्म्यूट् आसम् एक वक्तुम् इच्छामि यदि एक वाट्सप् गण अस्ति चेत् नूतन पुस्तके यत् अस्ति तत् वयं छायाचित्रं प्रेषयितुं शक्नुमः पुरातनपुस्तके यत् अस्ति तदपि कः अपि अथवा कापि छायाचित्रं
अस्तु भगिनि समीचीनमेव अस्तु तर्हि तत्र अस्तु एतत् कुर्मः तर्हि तत्र हा तत्र अस्तु तत्र किं कुर्मः तत्र किं समीचीनं भवति तत्र वाट्सप् ग्रूप् अस्य तत्र निर्माणे कोऽपि तत्र
तत्र चाट् मध्ये स्थापितुं शक्नोति वा भगिनि
प्रायशः तत्र फैल् न हा अस्तु तत्र अस्तु तत्र वाट्सप् ग्रूप् भवति चेत् समीचीनम् अस्ति चेत् कुर्मः भगिनि अस्तु तर्हि अतः तत्र प्रायशः तत्र
गीतासोपानं टु महोदय
इति किन्तु तत्र वाट्सप् ग्रूप् एकम् अस्ति खलु भगिनि तत्र शोभा भगिनि किन्तु पुरातन
वंशी सुधा भगिन्या कृतं महोदय तत्र सहपाठिनः इति तत्र गीतासोपानस्य कृते एव न तत्र अन्ये अपि सन्ति
अस्तु अस्तु
किन्तु अस्ति महोदय अधुना अपि अस्ति
अस्तु अस्तु किन्तु तत्र तद् भिन्नम् अस्ति अस्तु 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 कुर्मः भगिनि तर्हि तत्र कुर्मः अतः तत्र ईमेल् माध्यमेन तत्र अस्तु तत्र कुर्मः भगिनि हा यतोहि तत्र साहाय्यकं भवति अस्तु हर्षद भगिनि धन्यवादः हा तत्र अग्रिममार्गात् प्राक् एतत् कुर्मः तर्हि अस्तु हा अस्तु इदानीं तत्र द्वितीयसुभाषितं तत्र गम्यते इति एव आरम्भः वा
आं महोदय
नूतनपुस्तके अपि अस्तु गम्यते इति अस्तु समीचीनं गम्यते अस्तु तर्हि तर्हि तत्र अस्तु तर्हि तत्र नरेश महोदय तत्र गम्यते इति आरम्भं करोति वा तत्र
आं महोदय गम्यते यदि मृगेन्द्रमन्दिरं लभ्यते करिकपोलमौक्तिकं जम्बुकालयगतेन लभ्यते वत्स पुच्छखुरचर्मखण्डनं यदि सिंहस्य गुहा गम्यते तर्हि तत्र गजानां गण्डस्थलात् प्राप्तं गण्डस्थलात् प्राप्तं मौक्तिकं लभ्यते यदि शृगालस्य आवासः गम्यते तर्हि तत्र तु न तेन मारितस्य वत्सस्य पुच्छखुरचर्मादीनां खण्डाः लभ्यन्ते
हा अतः तत्र कर्मणि प्रयोग कर्मणिरूपक्रियापदं लभते लभ्यते क्षम्यतां लभ्यते अपि
गम्यते
गम्यते हा समीचीनं गम्यते लभ्यते
लभ्यन्ते
अस्तु
अत्र तु श्लोकमध्ये लभ्यते लभ्यते अस्ति
अस्ति हा समीचीनं महोदय अस्तु इदानीं तत्र एतत् कुर्मः तत्र प्रथमवाक्यं तत्र अर्थे तत्र यदि सिंहस्य गुहा गम्यते तर्हि इति तत्र कर्तृरूपं वदति वा तर्हि
आम् यदि वयं सिंहस्य गुहा गच्छामः तर्हि तत्र गजानां गण्डस्थलात् प्राप्तं मौक्तिकं लभामः
लभामहे खलु
लभामहे आम् आम्
लभते लभते इति आत्मनेपदी
लभामहे
पुनः महोदय यदि वयं
यदि वयं सिंहस्य गुहा गुहां गच्छामः तर्हि तत्र गजानां गण्डस्थलात् प्राप्तं मौक्तिकं लभ्यामहे
लभामहे
लभामहे
हा लभामहे तत्र मौक्तिकम् इति कर्मपदं तत्र प्राप्तं किमस्ति प्राप्तमिति विशेषणं महोदय तावदेव
अस्तु प्राप्तं
मौक्तिकं कीदृशं मौक्तिकं प्राप्तं मौक्तिकं
मौक्तिकं
कुतः प्राप्तम् इत्युक्ते
गण्डस्थलात्
प्राप्तं मौक्तिकम् इदानीं तत्र
मौक्तिकं किमस्ति
तत्र महोदय तत्र अन्य कोऽपि वक्तुम् इच्छति वा तत्र मौक्तिकं नाम तत्र विशेष तत्र खण्डमस्ति महोदय तत्र नाम गजात् एव एतत् प्राप्तुं शक्नुमः अतः तत्र विरलतया एतस्य दर्शनं भवति महोदय तत्र अतः तत्र गण्डस्थलात् इति अस्ति चेत् तत्र पुनः प्रश्नः कः कस्य गण्डस्थलात् इति प्रश्नः
गजानां
गजानां तत्र गजानां गण्डस्थलात्
केषां
गण्डस्थलात् सत्यं भगिनि यदि यदि उत्तरं जानीमः तर्हि बहुवचनं सत्यमेव सत्यमेव यदि उत्तरं न जानीमः तत्र कस्य इति अपि भवितुमर्हति समीचीनमेव अस्तु केषां अतः तत्र गजानं गण्डस्थलात् प्राप्तं मौक्तिकं लभामहे अस्तु समीचीनम् अस्तु इदानीं तत्र अग्रे तत्र वेदा भगिनी इदानीं तत्र द्वितीयभागस्य यदि शृगालस्य इति तत्र पठित्वा तत्र कर्तृरूपं वदति वा
यदि शृगालस्य आवासः गम्यते यदि शृगालस्य आवासः गम्यते तर्हि तत्र तु तेन मारितस्य वत्सस्य पुच्छखुरचर्मादीनां खण्डाः लभ्यन्ते अच्छा यदि अहं यदि वयम् और् अहम् इति वक्तामि वयं यदि वयं शृगालस्य आवासः
आवासः गम्यते इति लघुवाक्यं स्वीकरोतु आवासः गम्यते इति अस्ति तत्र अथवा तत्र आवास गम्यते इति क्रियापदम् आवासः किम् अस्ति तत्र कर्तृपदं वा कर्मपदं वा
शृगालस्य आवासः तत्तु कर्तृपदमेव
आवासः गम्यते इति
आवासः गम्यते
तत्र आवासः किम् अस्ति
आवासः कर्तृपदं न महोदय
गम्यते
न गम्यते इति स्वीक्रियते तद् आवासः कर्मपदं भवति
हा समीचीनं कर्मपदम् अतः प्रथमाविभक्ति इदानीं
गन्धः आत्मनेपदी अपि अस्ति न महोदय
न इदानीं तत्र गच्छति एव इति
ओ ओके
अस्तु इदानीं तत्र आवासः गम्यते इदानीं तत्र भयम् इति
वयं शृगालस्य आवासः गच्छामः
इदानीं भगिनि गच्छामः समीचीनं यदि वयं समीचीनं किन्तु शृगालस्य आवासः इति स्थाने किं भवेत्
आवासम्
इदानीं वाक्यं वदतु
यदि वयं शृगालस्य आवासं गच्छामः
हा इदानीं पुनः तत्र तदेव कर्मणि रूपे वदतु
कर्मणि रूपे वयं यदि वयम् आवां वयम् ओके सो वयं तत्र कर्मणि रूपे आवासः कर्मपदमस्ति तस्य कर्तृपदं भवति वयं स्थाने तृतीया विभक्ति भवति अस्माभिः
हा उत्तमं यदि अस्माभिः
अस्माभिः शृगालस्य आवासः गम्यते
हा इति समीचीनं हा इदानीं तस्य कर्तृरूपमस्ति यदि वयं शृगालस्य आवासं गच्छामः इदानीम् अग्रे तर्हि
तु तेन मारितस्य तेन तृतीया विभक्तिः अस्ति तत्र तेन मारितस्य वत्सस्य पृच्छकुर्मचर्मादीनां खण्डाः लभ्यन्ते तत्र तु तेन
कुत्र लभ्यन्ते इति अस्ति कर्मणि प्रयोगः कर्मपदं किम् अस्ति
खुरचर्मादीनां खण्डाः लभ्यन्ते खण्डाः
खण्डाः इति कर्मपदमस्ति अस्तु इदानीं तत्र अस्माभिः खण्डाः लभ्यन्ते इति चिन्तयतु अतः तत्र कर्तृरूपे वाक्यं किं भवति तत्र वयं
तत्र तत्र तु वयं मारितस्य वत्सस्य पुच्छखुरचर्मादीनां खण्डाः खण्डान् खण्डान् लभ्यन्ते तस्य लभते न तस्य परस्मैपतिरूपम् अस्ति वा के
नरेशमहोदय उक्तवान् नरेशमहोदय उक्तवान् तत्र
लभति
न न लभते इति आत्मनेपदी धातुः
आत्मनेपदीरूपमेव वा तत्तु लभ्यते लभ्यते लभ्येत् लभ्यन्ते लभ्येन्ते न न न किं वदामि एकनिमिषं महोदय लभ्यते लभ्येते लभ्यन्ते लभ्येते ओ आत्मनेपदीरूपमस्ति लभते लभ्येते लभन्ते लभन्ते सो तत्र लभन्ते इति रूपम् आयाति लभन्ते न न
किन्तु भगिनि तत्र कर्तृपदं किम् इति उक्तवती अस्माभिः इति
अस्माभिः कर्तृपदम्
अथ वयं वयम् इति अस्ति चेत् तत्र लभते इति स्थाने किं भवति
लभामहे
हा अहं लभे वयं लभामहे इदानीं तत्र पुनः वाक्यं
वयं मारितस्य वत्सस्य पुच्छकर्म खुरचर्मादीनां खण्डान् लभामहे
हा भगिनि सर्वं लभामहे खण्डान् लभामहे हा सर्वं समीचीनं भगिनि किन्तु प्रायशः तत्र भवती तत्र तु वयम् इति उक्तवती खलु
तत्र तु तेन तेन वयं न भवति महोदय
न न तदनन्तरं तत्र तु वयं तेन मारितस्य इति उक्तवती खलु
आम् आम्
आं वयं तत्र तेन तिष्ठति सत्यमेव तत्र तु वयं हा तत्र तु वयम् अस्तु प्रायशः तत् समीचीनमेव अस्तु अस्तु भगिनि समीचीनं हा खण्डान् लभामहे अस्तु समीचीनम् अस्तु अग्रे तर्हि तत्र हा इदानीं तत्र अग्रे तत्र हा प्रिया भगिनी अग्रिमं करोति वा
अस्तु महोदय
नमस्ते महोदय
वंशीसुधा भगिनी नमस्कारः
चिन्तितवती कक्षा नास्ति अद्य अधुना एव अहं ईमेल् दृष्टवती क्षम्यताम्
हा चिन्ता मास्तु भगिनि अग्रिमसप्ताहे वर्गः न भवति
कुत्र स्मः महोदय
पेज् 126 भगिनि
अस्तु अस्तु महोदय
अस्तु प्रिया भगिनी अग्रे तृतीया
अल्पानामपि वस्तूनां संहतिः कार्यसाधिका तृणैरारभ्यते रज्जुः तया नागोऽपि बध्यते
तत्र कर्मणि प्रयोगः कुत्र कुत्र भवति तत्र
अत्र कर्मणि केवलं बध्यते एव अस्ति
तृणैः
तया बध्यते
हा अपि तत्र प्रायशः तत्र आरम्भे भगिनि तत्र तृणैः
तृणैः आरभ्यते रज्जुः
हा तत्र प्रायश आरभ्यते इति तत्र
ओ आरभते इति वा
यकारः दृश्यते तत्र आरभ्यते तृणैः आरभ्यते
तृणैः आरभ्यते तत्र
अस्ति अपि च बध्यते इति द्वौ अस्ति अत्र
आरभ्यते रज्जुः अस्तु पश्यामः अस्तु तर्हि अधोभागे तत्र अर्थः दत्तः अस्ति तदपि पठतु भगिनि
अस्तु महोदय अल्पानि अपि वस्तूनि यदि एकत्रिताः क्रियन्ते तर्हि महत् कार्यमपि साधयितुं शक्यते तृणानि यदि विषकलितानि भवन्ति तर्हि तानि अतीव दुर्लभान् दुर्बलानि तथापि तानि यदि एकत्रीकृत्य रज्जुरूपेण क्रियन्ते तर्हि तया रज्ज्वा गजस्य अपि बन्धनं कर्तुं शक्यते
अस्तु समीचीनम् अतः प्रायः तत्र
अत्र बहवः आं बध्यते एव अत्र बहवः सन्ति शक्यते क्रियन्ते
अतः तत्र प्रथमवाक्यं स्वीकृत्य किञ्चित् वदतु तर्हि तत्र
अस्तु अल्पानामपि वस्तूनां संहति कार्यसाधिका किमपि वस्तु किञ्चिदपि अस्ति तदपि एकत्र तस्य ऐक्यं कृत्य वयं तस्य उपयोगं कुर्मः चेत् कार्यसिद्धिका भवितुम् अर्हति इति अस्ति अत्र
समीचीनं हा समीचीनं भगिनि हा इदानीं तत्र अर्थवाक्यानि सन्ति खलु तत्र प्रथम अर्थवाक्यं स्वीकृत्य अधोभागे अल्पानि अपि वस्तूनि तत्र कर्मणि प्रयोगः यद् यद् दृश्यते हा तस्य अपि किञ्चित् परिवर्तनं कृत्वा वदतु भगिनि
अस्तु महोदय अल्पानि अपि वस्तूनि यदि एकत्रिताः कुर्मः तर्हि महत् कार्यमपि साधयितुं शक्नुमः
साधयितुं शक्नुमः अस्तु वयम् अस्तु एकत्रिताः अस्तु तत्र एकत्रिताः इति प्रायशः तत्र किम् अस्ति तत्र लिङ्गं किम्
स्त्रीलिङ्गपदम् इति
प्रायशः भगिनि हा 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 समीचीनं भगिनि तत् तथैव भवेत्
एकत्रीकुर्मः इति वक्तुं शक्यते वा
एकत्री तद् द्रष्टव्यमस्ति भगिनि मया तत् तादृशं न श्रुतं पूर्वं तत्र उदाहरणवाक्यमस्ति वा भगिनि अपर्णा भगिनि
यदि वयम् अल्पानि अपि वस्तूनि एकत्रीकुर्मः तर्हि महत् कार्यमपि साधयितुं शक्नुमः
तत्र अव्ययं वा तत्र किमस्ति
श्वीप्रत्यय एकत्रीकुर्मः
एकत्री
एकत्र न आसीत् एकत्री कृतवती
एकत्री
अहं न जानामि महोदय
केवलं किन्तु तत्र एकत्री तदनन्तरं भूधातुः अथवा तत्र क्रूधातुः तत्र भवेत् तस्य रूपं भवेत् तत्र
अस्ति किल एकत्रीकुर्मः तर्हि महत् कार्यमपि साधितुं शक्नुमः
एकत्री शुक्ली हा भगिनी किन्तु तत्र तत्र शुक्लीकरोति तत्र च्वै प्रत्ययः इति चिन्तनं वा भवत्याः हा किन्तु भगिनी तत्र किं भवति च्वि प्रत्ययस्य योजनेन तत्र समस्तपदं भवति नाम एकत्रीकरोति तथैव वा तदेव चिन्तनमासीत् वा भवत्याः समीचीनं तत्र अस्तु एकत्रीकरोति हा एकत्रीकरोति तद् प्रायशः सत्यमस्ति भगिनि हा 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 च्वि प्रत्यय किन्तु तत्र क्रियते इति क्रियन्ते इति स्थाने तद् त्यक्त्वा तत्र उपसर्ग इव तत्र नाम च्वि प्रत्ययः तत्र शुक्लीकरोति इति तत्सर्वं हा हा स्पष्टीकरोति
यदि कोऽपि अल्पानि अपि वस्तूनि एकत्रीकरोति तर्हि महत् कार्यमपि साधयितुं शक्नोति
इति समीचीनं हा तत् तद् वक्तुं शक्नुमः भगिनि समीचीनमेव हा 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 समीचीनं हा समीचीनं भगिनि हा उत्तमम् अस्तु अस्तु तर्हि इदानीं तत्र प्रिया भगिनी इदानीं तत्र द्वितीयवाक्यं किञ्चित् वदतु तर्हि तत्र प्रायशः किमपि नास्ति खलु तत्र कर्मणि
नास्ति
अस्तु इदानीं तत्र अन्तिमं तत्र तथापि तानि
तथापि तानि यदि एकत्रीकृत्य रज्जुरूपं कुर्मः रज्जुरूपं कुर्मः रूपेण क्रियन्ते तथापि तानि यदि एकत्रीकृत्य रज्जुरूपे अत्र तृतीया कर्म रूपेण कुर्मः एव रज्जुरूपेण कुर्मः तर्हि तया रज्ज्वा गजस्य अपि बन्धनं कर्तुं शक्नुमः
तावदेव समीचीनं तत्र शक्यते इति एव तत्र
महोदय तत्र सुभाषिते नागः इति अस्ति किन्तु विवरणे अत्र गज इति दत्तं
न महोदय गजस्य अन्य नाम नागः इति महोदय
ओ
वा ओ अस्तु 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 अहं न ज्ञातवान् अस्तु इति वा
आं महोदय
ओ अस्तु तत्र अमरकोशे अस्ति वा एतत्
कोऽपि व्योम कक्षायां प्रथम फस्ट् ग्रूप् वयं पठितवन्तः महोदय
ओ अस्तु भगिनि समीचीनं हा 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 समीचीनं भगिनि किन्तु तत्र प्रायशः तत्र
अन्यनामः अपि अस्ति महोदय
अतः तत्र यदि प्रायशः अमरकोशे प्रायशः भवेत् खलु तर्हि तत्र नागः इति अस्तु तत्र यदि कोऽपि जानाति वदतु हा नो चेत् तत्र
महोदय विषकलितानि इत्युक्ते किं
किं भगिनि
तृणानि यदि विषकलितानि भवन्ति
विषकलितानि एकत्र न सन्ति इति तत्र
पृथक् कृतानि
हा नाम तत्र विषकले स्केटर्ड् स्केटर्ड् इति अर्थे इति मन्ये भगिनि तत्र एकां कथां पठितवन्तः पूर्वं तत्र माता कोऽपि आसीत् खलु तत्र किं माता धीरा माता इति को कथा आसीत् खलु तत्र पूर्वम् अस्मिन् पुस्तके कुत्र अस्ति तत्र धीरा माता
विदुला
हा 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 तस्मिन् तस्यां कथायां तत्र भवति सैनिकाः तत्र एकत्र न सन्ति इति कृत्वा तादृशपरिस्थितेः वर्णने तत्र विषकलितानि इति तादृशपदस्य प्रयोगः भवति भगिनि
धन्यवादः महोदय
अस्तु समीचीनम् अस्तु तर्हि अतः तत्र इदानीं तत्र सुभाषितानि कृतवन्तः अस्तु अग्रे सरामः तर्हि अस्तु तत्र शोभा भगिनी अग्रे पठति वा
अग्रे एतानि अस्तु महोदय
गीतावाक्यानि भगवद्गीतायाः वाक्यानि
एतानि गीतावाक्यानि उच्चैः पठत इदं शरीरं कौन्तेय क्षेत्रमित्याभिधीयते अभिधीयते तत्र अस्तु महोदय तत्र अन्ते कर्मणि तत्र कर्मणि वाक्यम् अभिधीयते इति
तत्र उपसर्गः अस्ति तत्र
उपसर्गः अस्ति
अतः तत्र अभियोगः धीयते इदानीं तत्र धीयते इति अस्ति चेत् वयं जानीमः वा तत्र किं भवति
तत्र धीयते अस्ति चेत् तत्र कर्मणि इति ज्ञातुं शक्नुमः
कर्तृ
दीयते इति भवति
कर्तृरूपं किं भवति
दधाति इति भवति
हा समीचीनम् इदानीम् उपसर्गसहित अभिदधाति
इति इदं शरीरं तत्र इदं शरीरं कौन्तेय क्षेत्रम् इति अभिधीयते इति तत्र क्षेत्रम् इति अभिधीयते
अभिधीयते नाम नामकरणम् अस्ति तावत् इति उच्यन्ते इति उच्यते अभिधीयते नाम उच्यते इति तत्र शरीरस्य अन्यनाम अस्ति क्षेत्रम्
आम् इति अर्थः तत्र कर्तरी करणीयं वा महोदय
न केवलं तत्र अस्ति चेत् तत्र अभिधीयते इति कर्मणि रूपः अस्ति चेत् किम् इति चिन्तनं तावदेव समीचीनम्
अस्तु
महोदय हा तत्र केवलं तत्र भगवद्गीतायाः श्लोकेषु तत्र कुत्र कुत्र कर्मणि अस्ति इति पश्यामः अस्तु हा समीचीनं भगिनि अस्तु अग्रे सुजाता भगिनी अग्रिमम्
आं महोदय कार्यकारणकर्तृत्वे हेतुः कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते
हा तत्र किमस्ति प्रकृतिः का पुरुषः कः इति तत्र पुरुषः इति तत्र तयोः तत्र वर्णनं हा नाम प्रकृतिः
उच्यते
उच्यते हा तत्र उच्यते प्रकृति
कर्मणि
हा इति अस्ति तत्र उच्यते इति तत्र कर्तृरूपं किम् अस्ति
वक्ति
वक्ति हा समीचीनं तत्र वदति उद्यते वक्ति उच्यते अस्तु तत्र अर्थः कः तत्र कार्यकरणकर्तृत्वे हेतुः
प्रकृतिः इति उच्यते
तत्र कर्तृत्वे इति अस्ति तत्र विभक्ति का तत्र
कर्तृत्वे सप्तमी
समीचीनं कर्तृत्वं तत्र कर्ता इति भावः कर्तृत्वं कर्ता इति भावः कर्तृत्वं कार्यकरण कर्ता नाम कर्तृत्वे तत्र भावत्रयं तत्र कार्यभावं करण कर्तृत्वे कार्यं कर्ता कर्ता तत्र तेषु तस्मिन् हेतुः हेतुः नाम
कारणं
कारणं हा तत्र कारणम् अस्ति प्रकृतिः अतः तत्र
पुरुषः
का इति उक्तम् इदानीम् अग्रे
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते सुख पुरुषः पुरुषः दुःखानां षष्टि बहुवचनमस्ति
सत्यं
भोक्तृत्वे
भोक्तृत्वे भोक्ता तत्र
हेतुरुच्यते सुखदुःखानां
हेतुरुच्यते भोक्तृत्वे सुखदुःखानां भोक्तृत्वं सुखदुःखानां भोगः यः भवति तत्र कर्ता भोक्ता पुनः भावः भोक्तृत्वं तस्मिन् हेतुः तस्मिन् विषये कारणं तस्य इति सः भवति पुरुषः पुरुषः इति एकः एकं तत्त्वं प्रकृति इति भिन्नं तत्त्वं खलु प्रकृतितत्त्वं किम् इति पुरुषतत्त्वं किम् इति अत्र उक्तं समीचीनं भगिनि अस्तु उच्यते तत्र
वक्ति
अस्तु समीचीनम् वदति आसीत् चेत् तत्र किं भवति प्रकृतिः इति प्रकृति
इति उद्यते
अस्तु समीचीनम् अस्तु इदानीम् अग्रे तत्र वंशीसुधा भगिनी पठितुम् इच्छति वा तत्र अस्तु 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 भगिनि चिन्ता मास्तु अस्तु श्रीप्रिया भगिनी अग्रे
यस्मिन् स्थितो न दुःखेन गुरुणा अपि विचाल्यते विचाल्यते इति कर्मणि रूपं विचालयति इति
विचलनिच्
अस्ति वा
सत्यं हा चालयति विचालयति
विचालयति यस्मिन् स्थितौ दुःखेन गुरुणा अपि विचालयति
हा तत्र प्रायशः तत्र क्लेशकरपदम् अस्ति तत्र गुरुणा इति हा गुरुणा इति अर्थः कः इति वदतु वदामि तत्र
ओ अत्र दुःखेन इत्यस्य विशेषणरूपेण अस्ति वा
हा इति सत्यं हा 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 तत्र गुरुः इति तत्र गुरुः तत्र देशिकः इति तादृश अर्थः नास्ति आचार्यः इति अर्थः नास्ति हा तदेव क्लेशकरपदम् अस्ति तत्र हा गुरुणा नाम बहु इति अर्थे तत्र अथवा कष्टकर हा हा
गुरुणा दुःखेन अपि विचालयति
हा तत्र तादृशं दुःखं भवति चेदपि तत्र मनसः तत्र परिवर्तनं न भवति
तादृशस्थितेः अपि तादृश्यां स्थित्यामपि इति
तत्र हा एतत् तत्र छल् धातुः खलु तत्र
छल्
छल् धातुः अपि निच् मध्ये तत्र किं भवति
चालयति इति
हा
चाली भवति चाली चाली धातु भवति चाल्यते निजन्ते
इति अतः तत्र तत्र मनसः परिवर्तनं न भवति तत्र मनः स्थिरं भवति गुरु तत्र दुःखं कीदृशम् अपि भवेत् किन्तु तत्र मनः स्थिरं भवति इति इति तत्र प्रायशः तत्र कस्यापि लक्षणं भवति एतत् इति चिन्तयामि खलु उत्तमपुरुषः वा तत्वा अथवा योगिनः लक्षणं वा इति वर्णने एतद् वाक्यम् अभवत् अस्ति इति मन्ये भगिनि अस्तु समीचीनम् अस्तु अग्रे सराम तर्हि तत्र किं भगिनि
स्थितप्रज्ञस्य लक्षणानि ये सन्ति तेषां विवरणम् अत्र अस्ति
हा अस्तु समीचीनं धन्यवादः भगिनि हा अस्तु अग्रे तत्र प्रिया भगिनी अग्रे
हा महोदय महोदय कुत्र स्मः
अग्रिमे पुटे भगिनि पेज् 127 चतुर्थवाक्यम् इदानीं
सप्तमवाक्यं वा
चतुर्थवाक्यं
चतुर्थ अस्तु अस्तु क्रियते बहुलायासं तद्राजसमुदाहृतम् अत्र क्रियते एव अस्ति महोदय
हा क्रियते एव अस्ति बहुलायासं तद् राजसमुदाहृतं तत्र प्रायशः तत्र अर्थस्य विषये तत्र किमपि न वक्तुं शक्नोमि इति मन्ये तत्र हा अस्तु अग्रे सरामः अस्तु अग्रे हर्षदा भगिनी अग्रे
आं महोदय क्रियते बहुलायासं तद्राजसमुदाहृतम् भ्रमं भवति महोदय
तत्र अर्थः अहम् अर्थः कः इति न जानामि भगिनि तत्र तस्य वाक्यस्य अतः अग्रेसरामः तर्हि तत्र दृष्ट्वा हा अथवा अन्य कोऽपि जानाति चेत् कृपया वदतु तर्हि तत्र किमस्ति इति नो चेत् अग्रे सरामः तत्र द्रष्टव्यमस्ति मया अतः हर्षदा भगिनी अग्रिमं वाक्यं स्वीकृत्य किञ्चित् वदतु भगिनि तत्र ब्रह्मचर्यम् इति
ब्रह्मचर्यम् अहिंसा च शारीरं तप उच्यते ब्रह्मचर्यम् अहिंसा च शारीरं तपो उच्यते पापे महोदय अहं गीतायां बहु वीक् अस्मि
चिन्ता मास्तु भगिनि अतः अहमपि तथैव अस्मि अतः चिन्ता मास्तु तत्र अतः तत्र केवलं तत्र यद् वक्तुं शक्नुमः तद् वदामः तत्र उच्यते इति तत्र किं भवति कर्तृरूप
वदति
वदति वक्ति 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 तत्र किम् अस्ति शरीरं तपः नाम शारीरं तत्र शरीरसम्बद्ध खलु तत्र शारीरक तप तप इति पदं तत्र कीदृशपदं प्रातिपदिकं किं तपः तप इति
तपस्
तपस् हा तत्र तपः शारीरकं तपः उच्यते तत्र तत् किम् अस्ति ब्रह्मचर्यम् अपि अहिंसा अहिंसा द्वयमस्ति तपः कीदृशतपः शारीरं तप तत्र शारीरम् इति विशेषणमस्ति तप तप इति पदस्य यतोहि तपः इति नपुंसकलिङ्गपदम्
आमां तपस् प्रातिपदिकं नपुंसकलिङ्गं तपः प्रथमा द्वितीया द्वयमपि एकवचनं
हा इति तावदेव हा तत्र अग्रे तत्र पश्यामः तत्र भगवद्गीतायाः तत्र अर्थः तत्र श्लोकस्य अर्थः अग्रे पश्यामः अस्तु इदानीम् एतत् पर्याप्तम् अस्तु अग्रे तत्र अपर्णा भगिनी अग्रे
महोदय क्रियते बहुलायासं तद् राजसम् उदाहृतम् इति अस्ति यः यत् यत् कर्म बहु परिश्रमपूर्वकं कृतं यत् कर्म मनुष्येण भोगम् इष्ट्वा कृतं यत् कर्म मनुष्येण अहङ्कारेण कृतं तत् कर्म राजसम् इति उच्यते
ओ अस्तु अतः राजसकर्मस्य कर्मणः वर्णनं राजसिककर्मणः वर्णनम् अस्तु समीचीनम्
अत्र कन्नड अर्थं दृष्ट्वा अहं संस्कृतेन वक्तुं प्रयत्नं कृतवती
समीचीनं भगिनि धन्यवादः धन्यवादः भगिनि अस्तु
सन्ति क्षम्यताम्
आनन्दं भगिनि चिन्ता मास्तु हा समीचीनम् अतः तत्र अस्तु राजसिककर्मणः वर्णनम् अस्तु समीचीनम् अस्तु तर्हि तत्र किञ्चित् इदानीमपि अस्ति कानिचन वाक्यानि किन्तु तत्र समयपि जातः अतः तत्र विरमाम किन्तु तत्र तस्मात् प्राक् सर्वे स्मरन्तु तत्र अग्रिमसप्ताहे वर्गः नास्ति तस्य अनन्तरसप्ताहे पुनः वर्गः यथा सर्वदा भवति तथैव भवति अतः केवलम् एकसप्ताहस्य तत्र विरामः अस्तु तर्हि तर्हि तत्र अन्ते तत्र शोभाभगिनी तत्र शान्तिमन्त्रं वदति वा
आं महोदय ॐ सर्वे भवन्तु सुखिनः सर्वे भवन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ओम् धन्यवादः महोदय
धन्यवादः
धन्यवादः
धन्यवादः भगिनी